श्रीनरसिंहकवचम्। नृसिंहकवचं वक्षे प्रह्लादेनोदितं पुरा सर्वारक्षाकरं पुण्यं सर्वोपद्रवनाशनं सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकं ध्यात्वा नृसिंहदेवेशं हेमसिंहासनस्थितं विरुतास्यं त्रिनयनं शरद् इन्दुसमप्रभम् लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिः रूपाश्रितं चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् अर्वोजशोभितो रस्कं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससम् इन्द्रादिसुरमौलिष्टः स्फुरन्माणिक्यदीप्तिभिः विराजितपादद्वन्द्वं शङ्खचक्रादिहेतिभिः गरुत्मता च विनयात् स्तूयमानं मुदान्वितं स्वहृत्कमलसंवासं कृत्वा तु कवचं पटेत् नृसिंहो मे शिरः पातु लोकरक्षात् लोकरक्षात्मसंभवः सर्वगोपीस्तम्भवाचः फलं मे रक्षतु ध्वनिं नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः स्मृतिं मे पातु नरहरिर्मुनिवर्यस्तुतिप्रियः नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्याधिपः पातु नृसिंहरसनां मम वक्त्रं पात्वन्दवदनं सदा प्रह्लादवन्दितः नृसिंहः पातु मे कण्ठं स्कन्दौ बुभृद् अनन्तकृत् दिव्यास्त्रशोभितभुजः नृसिंहः पातु मे भुजौ करौ मे देववरदो नृसिंहः पातु सर्वतः हृदयं योगिसादयश्च निवासं पातु मे हरिः मध्यं पातु हिरण्याक्षा वक्षकुक्षिप्विदारणः नाभिं मे पातु नरहरिस्वनाभिब्रह्मसंस्तुतः ब्रह्माण्डकोटया कट्यां यस्यासौ पातु मे कटिं गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ऊरुमनोभावः पातु जानूनि नररूपदृक् जङ्गे पातु धराभारा हर्ता योऽसौ नरकेसरी सुरराज्यप्रदः पातु पादो मे नरहरीश्वरः सहस्रशीर्षपुरुषः पातु मे सर्वसस्तनुं महोग्रहपूर्वतः पातु महावीराग्रजो अग्नितः महाविष्णुदक्षिणे तु महाज्वालस्तु नैऋतः पश्चिमे पातु सर्वेषो दिशि मे सर्वतोमुखः नृसिंहः पातु वायव्यां सौम्यं भूषणविग्रहः ईशान्यं पातु भद्रो मे सर्वमङ्गलदायकः संसारभयतः पातु मृत्योर्मृत्योर्नरकेसरी इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् भक्तिमान् यप्पटेनैतं सर्वपापैः प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् सर्वत्र जयम् आप्नोति सर्वत्र विजयी भवेत् भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् वृश्चिको रागसम्भूता विशापहरणं परं ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं भूर्जे वा तालपात्रे वा कवचं लिखितं शुभं करमूले धृतं येन सिद्ध्येयुः कर्मसिद्धयः देवासुरमनुष्येषु स्वं स्वम् एव जयं लभे एकसन्ध्यं त्रिसन्ध्यं वा यः पठेत् नियतो नरः सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति। द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणां कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिप्रजायते। अनेन मन्त्रराजेन कृत्वा भस्माभिर्मन्त्रणां तिलकं विनश्येद्यस्तु तस्य ग्राहभयं हरे। त्रिवारं जपमानस्तु दत्तं वाच्याभिमन्त्र च प्राशयेत्यो नरो मन्त्रं नृसिंहध्यानमाचरन् तस्य रोगाः प्रणश्यन्ति एतासु कुक्षिसम्भवाः। किमत्र बहुनोक्तेन नृसिंहादृशो भवेत्। मनसा चिन्तितं यत्तु सा तच्च आप्नोत्य संशयम्। गर्जन्तं गार्जयन्तं निजभुजपटलं स्फोटयन्तं हतन्तं रूपयन्तं तापयन्तं दिवि भुविदितिजं क्षेपयन्तं क्षिपन्तं क्रन्दन्तं घोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं वीक्षन्तं कूर्णयन्तं करनिकरसठैर्दिव्यसिंहं नमामि। इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णं। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे।